इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा। अथ वार्ताः। लोकसभा निर्वाचनस्य चतुर्थ चरणाय शेषेभ्यश्च चरणेभ्यः नैर्वाचनिक प्रचाराभियानं सजवं प्रवर्तते। विविध राजनीतिक दलीयाः नेतारः जनसभाः मार्गीय प्रदर्शनानि च कुर्वन्ति। चतुर्थ चरणे मतदानं अस्य मासस्य त्रयोदश दिनांके षण्णवतिः च आसनेभ्यः दशसु राज्येषु एकस्मिन् केन्द्रशासित प्रदेशे च भविष्यति। सप्तदशाधिक सप्तदश शत प्रत्याशिनां भाग्य निर्णयः अपि अस्मिन्नेव चरणे सम्भाव्यते। चतुर्थ चरणीयं मतदानम् अवलोक्य प्रख्यात नेतारः निज प्रत्याशिभ्यः मतदानाय आह्वानं कुर्वन्ति। भाजपेति दलस्य वरिष्ठः नेता अमितशाहः ह्यः भोंगिर लोकसभाक्षेत्रे दलप्रत्याशिनः डॉ बूरा नरसैया गौडस्य समर्थनाय प्रचारं कृतवान्। अपरतः कांग्रेस दलनेता राहुल गांधी अपि गतदिने तेलंगाना राज्ये प्रचाराभियाने एकस्मिन् सहभागं कृतवान्। हैदराबाद नगरस्य बाह्यक्षेत्रे सरूर नगरे एकं सार्वजनिकम् उपवेशनं च सम्बोधितवान्। लोकसभा निर्वाचनस्य षष्ठ चरणस्य कृते नामांकन प्रत्यावर्तनस्य ह्यः अन्तिमः दिवसः अवर्तत। अस्मिन् चरणे मे मासस्य पञ्चविंशति दिनांके षट्सु राज्येषु एकस्मिन् केन्द्रशासित प्रदेशे च सप्तपञ्चाशद् आसनेभ्यः मतदानं भविष्यति। षष्ठचरणे दिल्ल्याः सर्वेषु सप्तासनेषु, हरियाणाराज्यस्य दशसु आसनेषु, उत्तरप्रदेशस्य चतुर्दशसु आसनेषु, बिहार पश्चिमबंगालराज्ययोः अष्टासनेषु, ओडिशाराज्यस्य षड् आसनेषु, झारखण्डराज्यस्य चतुर्षु आसनेषु च मतदानं भविष्यति। लोकसभा निर्वाचनस्य मतगणना जूनमासस्य चतुर्थे दिनांके भविष्यति। रक्षासचिवः गिरिधर अरमाने सबलं प्रत्यपादयत् यत् रक्षाक्षेत्रे आधारभूत संरचनागत विकासाय आत्मनिर्भरता महत्वपूर्णा वर्तते। तेनोक्तं यत् देशः अस्मिन् क्षेत्रे पराश्रितः नैव भवितुं शक्यते। ह्यः नवदिल्ल्यां रक्षानुसन्धान विकास संघटनस्य राष्ट्रिय संगोष्ठ्याः प्रदर्शन्याश्च औद्घाटनिक सत्रं सम्बोधयन् असौ अकथयत् यत् आत्मनिर्भरता उद्घोषमात्रं नैव अपितु देशस्य आर्थिक विकासाय महत्वपूर्ण सत्रं वर्तते। आत्मनिर्भरतया संरचनागत विकासाय मूल्यराशिः अल्पः भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मूः गतदिने नवदिल्ल्यां राष्ट्रपतिभवने द्वितीये नागरिकालंकरण समारोहे पद्म पुरस्कारान् प्रदत्तवती। डॉ बैजयन्ती मालाबाली इत्यस्य तेलुगु चलचित्राभिनेत्रे कोडिनेला कोनिडेला चिरंजीविने पद्मभूषणं प्रदत्तम्। एयर इंडिया एक्सप्रेस इत्यनया विमानसेवया स्ववरिष्ठ चालक दलस्य पञ्चविंशति सदस्यानां सेवा निरस्तीकृता। पूर्वसूचनां विनैव एतेषां सदस्यानां अवकाशगमनेन एयर इंडिया एक्सप्रेस विमानसेवाः प्रभाविताः जाताः, येन हि साम्प्रतं यावत् अशीतिः उड्डयनसेवाः बाधिताः जाताः। गतदिने अपि पञ्चाशीतिः उड्डयनानि निरस्तीकृतानि। अनेन कारणेन प्रभाविताः यात्रिणः प्रतिदानम् अथवा अग्रिमे तिथये यात्राविवरणं पुनः अवाप्स्यन्ति। इण्डियन प्रीमियर लीग क्रिकेट स्पर्धा मालिकायां गतरात्रौ हिमाचल प्रदेशे धर्मशालायाम् आयोजिते द्वन्द्वे रॉयल चैलेंजर्स बेंगलुरु दलेन पंजाब किंग्स दलं षष्टि धावनांकैः पराजितम्। अद्यतने द्वन्द्वे गुजरात टाइटन्स दलं चेन्नई सुपर किंग्स दलं सम्मुखीकरिष्यति। इयं स्पर्धा सायं सार्ध सप्तवादने गुजराते अहमदाबाद नगरस्थे नरेन्द्र मोदी क्रीडांगणे आयोजयिष्यते।